एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रधानमन्त्रिण शेरबहादुरदेउवा विधस्य सभामुखस्य अग्निप्रसाद सापकोटा विधस्य च मध्ये संघीय संसद आयव्ययकाधिवेशनस्य आह्वानस्य सम्बन्धे विमृष्टमस्ति। बाल्वा टारावर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने मेलने सर्वकारस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च ज्येष्ठस्य पञ्चदशे दिवसे आनयनात्मिकायाः सांविधानिक व्यवस्थायाः अनुसारेण आयव्ययकाधिवेशनस्य आह्वानस्य सम्बन्धे विमृष्टमिति सभामुखस्य सापकोटाभिधस्य संचार परामर्शदाता श्रीधरन न्यौपाने ज्ञापयति। पञ्चदलीयेन गठबन्धनेन स्थानीय स्तराणाम् निर्वाचनाय संघटितस्य आन्तर पूर्व कार्यानुगमन संयन्त्रस्य ह्य उपविष्टेन उपवेशेन स्थानीय स्तराणाम् निर्वाचने सहमतेरनुरूपम् कार्यम् कर्तुम् दलैः अन्तर्गतेभ्य निकायेभ्य निर्देशनम् दातुम् निर्णीतम् वर्तते। उपवेशेन गठबन्धनस्य प्रत्याशिनाम् विरूद्धे पञ्जीकारित मनोनयानाम् प्रत्याशिनः दण्डयितुम् निर्णीतम् वर्तते। उपवेशेन गठबन्धनस्य मर्मणः भावनायाश्च अनुसारम् परस्परम् एकताम् सन्धार्य निर्वाचने सक्रियतापूर्वकम् दायित्वम् पूरयितुम् निर्णीतम् वर्तते। संयन्त्रस्य उपवेशेन निर्णयस्य अपालकान् जनान् दण्डयितुमपि निर्णीतमस्ति। नेपाली कांग्रेस दलेन अस्यैव वैशाखस्य त्रिंशे दिवसे स्थानीय स्तराणाम् सम्पत्स्यमाने निर्वाचने सत्ता गठबन्धनस्य दलानाम् मध्ये वीतः नैर्वाचनिक समन्वयः अपवादम् विना सफलः संवृत्तः इति ज्ञापितम् वर्तते। सानेपावर्तिनी दल केन्द्रीय कार्यालये ह्य आयोजिते पत्रकार सम्मेलने दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत अपवादेन विना सर्वत्र स्थलेषु दलस्य निर्णयः नेपाली कांग्रेस दलस्य नेतृ कार्यकर्तृभिः स्वीकृतः इत्युक्तवान्। वक्ता डाक्टर महत कतिपय पालिकासु कांग्रेस दलस्य मतदातृषु बहुषु सत्स्वपि अन्येभ्यः प्रमुख पदम् किमर्थम् दत्तमिति विचारः इदानीमपि समागतो स्थिति अज्ञापयत। प्रवक्ता डाक्टर महत पुनरपि कतिचित् स्थानीय स्तरेषु दलस्य नेतारः कार्यकर्तारश्च शनैः दलेन गठबन्धनेन च निश्चितानाम् प्रत्याशिनाम् पक्षे आगमिष्यन्तीति विश्वासम् व्यक्तवान्। निर्वाचन आयोगेन सामाजिक सञ्जाले निर्वाचनस्य निष्पक्षतायाम् गरिमणि च बाधाकारिणी सामग्री न प्रचारयितुम् सर्वे प्रयोगकर्तारः अनुरुद्धाः सन्ति। आयोगेन ह्य काष्ठमण्डपे पत्रकार सम्मेलनम् आयोज्य राजनीतिक दलानि निर्वाचनस्य प्रत्याशिनश्च लक्ष्यीकृत्य मिथ्या सूचनाम् दुष्प्रचारम् द्वेषपूर्णाम् अभिव्यक्तिम् च सामाजिक सञ्जाले न प्रचारयितुम् अनुरुद्धम् वर्तते। फेसबुक ट्विटर युट्युब प्रवृत्ति सामाजिक सञ्जालेषु जनसञ्चार माध्यमेषु च मिथ्यापूर्णाः भ्रामिकाश्च सामग्रीः प्रयुज्य प्रत्याशिनाम् चरित्र हनन कारिणीः व्यक्तिगत लाञ्छनाक्षेपिकाः निर्वाचनाय प्रत्यक्ष प्रभावकारिणीः वा कथंविदाः अपि सामग्रीः न प्रयोक्तुम् आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अन्वर्णत। निर्वाचन आयोगेन सामाजिक सञ्जालस्य उपयोगम् नियमनम् च प्रभावकारी विधाय निर्वाचन बद्धायाः सूचनायाः विश्वसनीयतायै मितव्ययितायै गुणस्तरीयतायै उपागमनार्हतायै च विभिन्नाः आचार संहिताः नीतयश्च सार्वजनिक कृताः सन्तीति उल्लिख्य इमाः पालयितुम् सम्बद्धानाम् सर्वेषाम् पक्षाणाम् ध्यानम् आकर्षितम् वर्तते। आयोगेन निर्वाचनस्य स्वच्छतायाम् निष्पक्षतायाम् च प्रभावसर्जनत्वेन सीमावर्ती क्षेत्रस्य प्रतिवेशी देशस्य प्रसारणमाध्यमैः काः अपि सामग्रीः न प्रसारयितुम् कस्यापि प्रत्याशिनः राजनीतिक दलस्य वा पक्षे विपक्षे वा समाचारान् समाचार टिप्पणी विचारान् एवं प्रकृतेः सामग्रीः वा न प्रसारयितुम् च अनुरुद्धम् वर्तते। आयोगेन प्रतिवेशी देशस्य संचार माध्यमैः सम्भाव्यान् राजनीतिक दलानाम् प्रचार प्रसारयोः विज्ञापनस्य वा नियन्त्रणाय नेपाल सर्वकारस्य माध्यमेन प्रतिवेशी देशस्य सर्वकारम् अनुरुध्य पत्र प्रेषणार्थम् निर्दिष्टमिति आयोगस्य प्रवक्ता पौडेलः अवोचत। कर्णाली प्रदेशस्य दशसु एव जनपदेषु मतपत्रेण सहिताः नैर्वाचनिक सामग्र्यः प्रेषिताः सन्ति। हुम्ला डोल्पा मुगु जनपदेषु नेपाली सेनाया हेलिकप्टर यानस्य अन्येषु जनपदेषु यानानां च माध्यमेन नैर्वाचनिक सामग्र्यः प्रेषिताः सन्तीति सुर्खेतवर्तिना प्रदेश निर्वाचन कार्यालयेन ज्ञापितं वर्तते। निर्वाचन आयोगेन कर्णाली प्रदेशे 11 लक्षाणि मतपत्राणि प्रेषितानि सन्ति। कर्णाली प्रदेशे 10 लक्षाणि 180,200 च मतदातारु वर्तन्ते। सर्वकारेण नेपाल प्रहरीण महानिरीक्षक पदे धीरज प्रताप सिंहस्य, सशस्त्र प्रहरी बल नेपालस्य महानिरीक्षक पदे राजु अरियालस्य च पदोन्नत्यै निर्णीतं वर्तते। मन्त्री परिषदाय ह्य उपविष्टेन उपवेशेन द्वयोः संगठनयोः अतिरिक्त महानिरीक्षकयोः सिंहस्य अरियालस्य च पदोन्नत्यै निर्णीतमिति पेयजल मन्त्री उमाकान्त चौधरी अज्ञापयत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः आर्थिक सामाजिक रूपेण श्रमिकेषु विद्यमानं भेदभावं निर्मूलयितुं बलं ददाति। अन्तर्राष्ट्रिय श्रमिक दिवसस्य अवसरे नेपाल ट्रेड युनियन कांग्रेस संघेन ह्य दमौली स्थाने आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः अवदत् श्रमिकेषु अधुनापि विभेदो विद्यमानोऽस्ति। नेता पौडेलः गठबन्धनम् अन्यथा नमन्तुं कार्यकर्तृन् अन्वर्णत। कांग्रेस दलेन सह विद्यमानं जनमतम् आलक्ष्य गठबन्धनं विहितमिति हेतो गठबन्धनेन न कस्मै अपि हानि नास्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति काष्ठमण्डपस्य सभ्यतां संस्कृतिं च संरक्षितुं नगरं सम्पन्नं विधातुं च एमाले दलं प्रतिबद्धं वर्तते। काष्ठमण्डपे ह्य श्रमिक दिवसस्य अवसरे जीफन्ट नाम्ना नेपाल ट्रेड युनियन महासंघेन आयोजिते कार्यक्रमे अध्यक्ष ओली श्रमिकाणां वृत्त्युपार्जनाय सुरक्षायै च स्वस्य नेतृत्वस्य सर्वकारेण बह्व्यः योजनाः अग्रे सारिताः ताः सर्वाः क्रियान्विताश्च सन्तीति स्पष्टीकृतवान्। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा वदति भ्रष्टाचार रहिताय विदेह शासनाय विकासाय युनाम वृत्त्युपार्जनाय च नेपाली कांग्रेस दलेन प्रमुख प्राथमिकतया कार्याणि विधीयन्ते। अन्तर्राष्ट्रिय श्रमिक दिवसस्य अवसरे नेपाल ट्रेड युनियन कांग्रेस संघेन ह्य आयोजिते कार्यक्रमे महामन्त्री शर्मा अवदत् आगामिनि 15 वर्षाणि यावत् शासनं विधाय देशं समृद्धं विधातुं दलं दृढसंकल्पं वर्तते। कांग्रेसदलं असम्भवैः मिथ्यावादैः सह न अपितु यथार्थ विषयान् पुरस्कृत्य जनतायाः मध्ये गच्छति। कार्यक्रमे नेपाली कांग्रेस दलस्य पक्षतः काष्ठमण्डप महानगरपालिकायाः प्रमुख पदस्य प्रत्याशी सृजना सिंह काष्ठमण्डपं सुरक्षितं स्वच्छं मनोरमं भ्रमणयोग्यं च विधातुं प्रतिबद्धतां व्यक्तवती। नेपाल ट्रेड युनियन कांग्रेस संघस्य अध्यक्ष पुष्कर आचार्य पूर्वाध्यक्ष खिलनाथ दाहाल अन्य वक्तारश्च नेपाली कांग्रेस दलं श्रमिकाणां हिताय अधिक सहयोगी उदाहरण चास्तीति अवोचन्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला वदति सम्पूर्णाः पालिकाः श्रमिक मैत्रीपूर्णाः विधातव्याः। मोरङ जनपदीयेन नेपाल ट्रेड युनियन कंग्रेस संघेन श्रमिक दिवसस्य अवसरे ह्यो विराटनगरे आयोजिते कार्यक्रमे नेता कोइराला अवदत् कांग्रेस दलं श्रमिकाणां हिताय प्रतिबद्धम् अस्ति।